दशकम् 51 अघासुरवधवर्णनं अतिरुचिरा छन्दस् कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् समावृतो बहुतरवत्समण्डलैः सते मनैर्निरगमदीशजे मनैः विनिर्यतस्तव चरणाम्बुजद्वयात् उदं चितं त्रिभुवन पावनो व्रजः महर्षयः पुलकधरैः कलेबरैः उदूहिरे धृतभवदीक्षणोत्सवाः प्रचारयत्य विरलशाध्वलेतले पशून् विभो भवति समं कुमारकैः अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः महाचल प्रतिमतनोर्गुहानिभ प्रसारित प्रथित मुखस्य कानने मुखोदरौ विहरण कौतुकाद्गताः कुमारकः किमपि विदूरगे त्वयि प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले स वात्सके विदन्निदं त्वमपि विवेशित प्रभो सहृज्जनौ विशरणमाशुरक्षितुम् गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते धृत्तं भवान् विदलितकण्ठमण्डलः विमोचयन् पशुपशून् विनिर्ययौ क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभव महो महो महत् विनिर्गते त्वयि तु निलीनमञ्जसा नभस्थले न नृतरथो जगुस्सुराः सविस्मयः कमलभवादिभिः सुरैः अनुद्रुतस्तदनुगतः कुमारकैः दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् विषाणिकामपि मुरलीन्नितम्बके निवेशयन् कबलधरः कराम्बुजे प्रहासयन् कलवचनः कुमारकान् बुभोचिथ त्रिदशगणैर्मुदानुतः सुखाशनं त्विहतव गोपमण्डले मखाशनात् प्रियमिव देवमण्डले इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरी निलयगदात् प्रपाहि माम् वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् सदा सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्दा गोविन्दा नारायणा अखिलगुरो भगवन् नमस्ते।